सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः अस्तु भगिनि
आं भगिनि शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारं भगिनि
नमस्कारः धन्यवादः अग्रे गच्छामः सुभाषितं बहु सुलभसुभाषितमेव झटिति अर्थम् अवगन्तुं शक्नुमः वयं प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तदेव वक्तव्यं वचनेका दरिद्रता सुलभ एव खलु पुनरेकवारं पठामि प्रियवाक्यप्रधानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तदेव वक्तव्यं वचनेका दरिद्रता सर्वे जन्तवः जन्तवः इत्युक्ते केवलं मानवाः न मृगाः अपि सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति तुष्यन्ति इत्युक्ते सन्तोषम् अनुभवन्ति तस्मात् तस्मात् इत्युक्ते तस्मात् कारणात् अथवा तेन कारणेन एतत् अस्ति इति स्थितिः अस्ति एतेन कारणेन तदेव वक्तव्यं तत् एव वक्तव्यम् प्रियवाक्यमेव वयं वदामः वचने का दरिद्रता किमर्थं न वक्तव्यम् इत्युक्ते धनं किमपि न आवश्यकं खलु प्रियवाक्यवचनेन धनं किमपि न आवश्यकम् अतः प्रियवाक्यमेव वदामः इति सुभाषितकारस्य अभिप्रायः सो अत्र विस्तरेण एतत् सुभाषितं कुतः आनीतम् इत्युक्ते संस्कृतभारतीजनाः सो अत्र पश्यन्तु 20-100 सुभाषितानि स्वीकृत्य एतादृशम् उक्त्वा विवरणानि अपि वदन्ति ततः एव अहं स्वीकृतवती सो अत्र विवरणम् एवम् अस्ति यदि वयं प्रियवाक्यं वदामः तर्हि सर्वे जनाः सन्तुष्टाः भवन्ति न केवलं जनाः सर्वे प्राणिनः अपि सन्तुष्टाः भवन्ति प्रियवाक्यं वक्तुं धनं दातव्यं किमपि नास्ति विशालमनः एव आवश्यकम् प्रियवाक्यकथने दरिद्रता किमर्थम् सर्वैः प्रियं वचनं वक्तुं शक्यते शक्नुवन्ति सर्वे शक्नुवन्ति सो अत्र कर्मणि प्रयोगे अस्ति सर्वैः शक्यते वक्तुं शक्यते कर्तरिप्रयोगे सर्वे वक्तुं शक्नुवन्ति इति भवति अतः वचने दारिद्र्यं मास्तु सर्वे प्रियवाक्यमेव वदामः अपि च अहिंसा परमो धर्मः इति वयं जानीमः एतत् अनुसृत्य हिंसवचनं त्यक्त्वा प्रियवचनमेव वदामः इति सारांशः अस्ति सुभाषितस्य
बहु सुन्दरम् अस्ति भगिनी, बहवः धन्यवादाः.
धन्यवादः भगिनी. ततः एव स्वीकृताः सन्ति एतानि सुभाषितानि, स्वीकृतानि सन्ति.
भगिनी, दरिद्रता हियर् मीन्स् मीन् वी नी नाट् बी मैसर्लि.
Miserly, miserly. So we can say freely, we can say, you know, good thoughts to people. We can send good thoughts to people, we can say good words.
Aam bhagini, avagatam.
Uttam. Punar ekavaram patami. Priya vakya pradhanena swatra. प्रियवाक्यप्रदानेन इत्युक्ते दानेन एव. प्रदानं दानं समानार्थकपदं. प्रदानेन दानेन सर्वे तुष्यन्ति सन्तुष्यन्ति समानार्थकपदं. जन्तवः जन्तुः जन्तवः. तस्मात् कारणेन अथवा तेन एतेन. तदेव वक्तव्यं. वचने का दरिद्रता. अस्तु, एकवारं यूट्यूब् शृणुमः वा वयमेव गायामः वा मिलित्वा गायामः वा?
आं भगिनि.
आं भगिनि.
सुन्दरम्. आरम्भं कुर्मः वा? भारतमाता बुधजनगीता निर्मलगङ्गा जलपूता. भारतमाता
बुधजनगीता
शिरसि विरा. मिलित्वा जानन्ति चेत् गायामः, नो चेत् द्वितीयवारं. शिरसि विराजित हिमगिरिमुकुटं चरणे हिन्दु महादधि सलिलम् चरणे चरणे हिन्दु महादधि सलिलम् सस्यलता तरुवसनम् जगने सस्यलता तरुवसनम् जय भारत जननी. जय भारत
जत जननी.
जय भारत जत जननी. जय भारत जननी. ऋषिवर घोषित मंत्र पुलकित कविवर गुंत पावन चरित धीर वीर नृप शौर्य पालित. जय भारत जननी. जय भारत जननी. भारत जननी. जय भारत जननी. कोऽपि गातुम् इच्छति वा?
अहं गायामि भगिनि.
आं भगिनि,
प्रयत्नं
करोतु करोतु करोतु.
भारत माता बुध जनगीता निर्मल गंगा जलपूता. शिरसि विराजित हिमगिरि मुकुटं चरणे हिन्दु महोदधि सलिलं. जगने
उपरि उपरि ग
जगने
सस्यलता तरुवसनं जय भारत जननी जय भारत जननी जय भारत जननी जय भारत जननी ऋषिवर घोषित मंत्र पुलकिता कविवर गुंपित पावन चरिता धीर वीर नृप शौर्य पालिता जय भारत जननी जय भारत जननी जय भारत जननी जय भारत जननी मम मनसि सरतव पदयुगलं संस्कृत संस्कृति सतत चिंतनं भावरागलयतालमेलनं जय भारत जननी जय भारत जननी जय भारत जननी जय भारत जननी भारत माता बुध जन गीता निर्मल गंगा जलपूता सम्यक् वा भगिनी
बहु सुन्दरं भगिनी बहु सुन्दरम् अन्य कोऽपि गातुम् इच्छति वा अस्तु तर्हि अग्रे गच्छामः अग्रे कथा अस्ति स्वामिभक्तिः स्वामिभक्तिः इति समस्तपदम् अस्ति सो अत्र षष्टिविभक्ति अपि भवितुम् अर्हति सप्तमी अपि खलु स्वामिनः भक्तिः अथवा स्वामिनि भक्तिः अपि सो अत्र स्वामिनि भक्तिः सम्यक् इति चिन्तयामि खलु अस्तु पश्यामः अम्ब पठितुम् इच्छति वा आरम्भं कर्तुम् इच्छति वा
रामायणस्य कालः रामः रावणं हतवान् सीतया सह अयोध्याम् आगतवान् च रामस्य राज्याभिषेकसमये सर्वत्र सन्तोषः तदानीं सर्वेभ्यः पारितोषिकानि ददानि भटा बहवः आसन् भटा बहवः आसन् एकैक अपि पारितोषिकं प्राप्तवान्
अस्तु सो अत्र रामायणस्य कालः रामः रावणं हत्वा सीतया सह अयोध्याम् आगतवान् रामस्य राज्यपट्टाभिषेकसमयः तादृशसमयः सर्वत्र सन्तोषः एव तदानीं सर्वेभ्यः पारितोषिकानि दत्तानि सो अत्रापि कर्मणि प्रयोग अत्र कर्तरि रामः रावणं हतवान् सीतया सह आगतवान् कर्तरि रामस्य समयः आसीत् सर्वत्र सन्तोषः आसीत् कर्तरि प्रयोग इदानीं कर्मणि अभवत् तदानीं सर्वेभ्यः पारितोषिकानि दत्तानि सन्ति दत्तानि आसन् इति भटाः इत्युक्ते सैनिकाः भटाः सैनिकाः बहवः आसन् एकैकः अपि पारितोषिकं प्राप्तवान् कर्तरि एव पुनः पारितोषिकम् इत्युक्ते गिफ्ट् दत्तवान् अस्तु अग्रे का पठितुमिच्छति जयश्री भगिनी
आं भगिनि, आञ्जनेयस्य पर्यायः आगतः आञ्जनेयः रामसमीपम् आगतवान्। रामस्य पार्श्वे सीता आसीत् किल। सा स्वकीयं कण्ठहारम् आञ्जनेयाय दत्तवती। आञ्जनेयः हारं स्वीकृत्य बहिः आगतवान्। एकं वृक्षम् आरुह्य उपविष्टवान्। कण्ठहारस्य एकं मणिं स्वीकृतवान्। दन्तेन दष्टवान्। तं मणिम् अधः क्षिप्तवान्। अन्यं मणिं स्वीकृतवान्। दन्तेन पुनः दष्टवान्। तं मणिम् अपि अधः क्षिप्तवान्। एवम् एकैकशः मणिम् अधः क्षिप्तवान् स। आञ्जनेयः तस्य मित्राय सह राजाभिषेकस्य कारणम् आगतः। आञ्जनेयः रामसमीपम् आगत्य सः हारं सीतातः स्वीकृतवान्। रामस्य पार्श्वे सीताः आसीत्। सः कण्ठहारम् आञ्जनेयस्य दत्तवती।
सीता आसीत्, आञ्जनेयस्य कृते दत्तवती।
आञ्जनेयः एकः वृक्षम् आरुह्य वृक्षे उपविष्टवान्। कण्ठहारं स्वीकृत्य एकैकमणिं दन्तेन द्रष्टवान्। दन्तेन
द्रष्टवान् इत्युक्ते
दष्टवान्। दन्तेन दष्टवान्। पुनः मणिं क्षिप्तवान् च। अधः क्षिप्तवान् इति सः अपि सर्वे मणिं दष्टवान् क्षिप्तवान् च अधः क्षिप्तवान्।
सम्यक् भगिनि। सो अत्र अहं किञ्चित् वदामि। सो अत्र पर्यायः इत्युक्ते हिस् टर्न् इति, आञ्जनेयस्य टर्न् आगतः, पर्यायः टर्न् पर्यायः। आञ्जनेयः रामसमीपम् आगतवान्, सीता। सो अत्र अन्यपदमपि अस्ति, स्वकीयं स्वकीयं कण्ठहारम् इत्युक्ते सा तस्याः कण्ठहारम्। सो अत्र तस्याः इति पदं वदामः चेत् सा इति पदस्य विशेषणं भवति, सा तस्याः इति। परन्तु स्वकीयं स्वस्य स्वकीयम् इति वदामः चेत् कर्मपदम् अनुसरति। अतः हारम् इति नपुंसकलिङ्गपदम्, अतः स्वकीयं नपुंसकलिङ्गम् भवति। सा इति स्त्रीलिङ्गं, परन्तु स्वकीयं नपुंसकलिङ्गम्। अन्य उदाहरणं वदामि। सो अत्र कण्ठहारम् इति स्थाने, परन्तु तादृशमेव भवति खलु, द्वितीया विभक्ति एव भवति। सो अत्र पुल्लिङ्गः अस्ति चेत् स्वकीयः इति भवति। अस्तु, अन्य किम् अस्ति अत्र
भगिनी? अत्र सा स्वस्य कण्ठहारं दत्तवती अपि वक्तुं शक्नुमः वा?
स्वस्य न स्याः इति भवति, सम्यक् एव. स्वस्याः तस्याः सम्यक्. क्षिप्तवान् इत्युक्ते पातितवान्, अधः पतति परन्तु पातनं करोति, पातितवान्. अस्तु, सम्यक्. सन्ध्या
एकैकशः इत्युक्ते क्रमेण
क्रमशः, शः इति वदामः चेत् एकम् एकम् इति, प्रथमं द्वितीयं तृतीयम् इति क्रमेण क्रमशः. सम्यक्,
धन्यवादः.
धन्यवादः. अस्तु भगिनि, एतत् पठतु.
तत्र एकः नागरिकः आगतः. नागरिकः एतत् सर्वं दृष्ट्वा आञ्जनेयं पृष्टवान्, इदं किं करोति भवान् इति. मणिपरीक्षां करोमि इति उक्तवान् आञ्जनेयः. किम् इति परीक्षां करोति इति पृष्टवान् नागरिकः. श्रीरामः मणिषु अस्ति वा इति परीक्षां करोमि इति उक्तवान् आञ्जनेयः.
पर्याप्तं भगिनि.
आञ्जनेयः मणिं क्षिप्तवान्. तत्र एकः नागरिकः अपश्यत्, आगतः आञ्जनेयः क्षिप्तवान् इति अपश्यत्. नागरिकः इदं दृष्ट्वा हौ टु वि से सर्प्रैस्ड् भगिनि, आश्चर्यम् अनुभूतवान्. तदनन्तरं पृष्टवान् मालां मणिं, मालस्य मणिं बहु सुन्दरम् अस्ति, किमर्थं मणिं क्षिप्तवान् इति. आञ्जनेयः उत्तरं दत्तवान्, अहं मणिं परीक्षां करोमि इति. किमर्थं परीक्षां करोति इति नागरिकः पुनः पृष्टवान्. आञ्जनेयः उक्तवान् मणिम् अन्तरं श्रीरामः अस्ति वा नास्ति वा इति अहं परीक्षां करोमि इति उक्तवान्.
सम्यक्. मनीषा, मनीषु अस्ति वा अथवा
श्रीरामः मनीषु अस्ति
अस्ति वा? सो अहं किं वदामि इत्युक्ते मनीषु इति सप्तमी विभक्ति, सो अतः एकमेव पदं पर्याप्तं, मनीषु अस्ति वा इति. परन्तु सप्तमी विभक्ति, अन्तः इति पदम् उपयोगं कुर्मः चेत् सप्तमी विभक्ति भवति.
ओ, सप्तमी आफ् इकारान्तः वुड् बि भगिनि, सोरि, मणीनाम् अन्तः श्रीरामः अस्ति वा नास्ति वा इति परीक्षां करोमि.
सम्यक् भगिनि, सम्यक्. अस्तु, शारदा भगिनि.
एवं किमर्थम् इति पृष्टवान् नागरिकः. यत्र श्रीरामः नास्ति तेन मणिना मम किं प्रयोजनम्? सर्वे मनयः परीक्षिताः, एकस्मिन् अपि मनौ श्रीरामः नास्ति, अतः मणिं क्षिपामि इति उक्तवान् आञ्जनेयः.
कति विधशब्दाः विभक्तयः, बहु सुन्दरम् अस्ति.
एवं किमर्थं कृतवान् इति पृष्टवान् नागरिकः. करोति इति पृष्टवान् नागरिकः. यत्र श्रीरामः नास्ति तानि मनीनि अहं न स्वीकरोमि. सर्वे मनयः अहं परीक्षां कृतवान्. एकस्मिन् अपि मनौ श्रीरामः नास्ति, अतः मनीं क्षिपामि इति उक्तवान् आञ्जनेयः.
सुन्दरं खलु. मणिना इति विभक्तिका
तृतीया.
तृतीया, सम्यक्. मणिना तेन, तेन तेन अपि तृतीया. तेन तेन मणिना मम किम, मम किं प्रयोजनं. सर्वे इति प्रथमा विभक्ति बहुवचनम्. अत्र मनयः अपि प्रथमा बहुवचनं. मणिः मणि मनयः मनयः. सो अत्र अपि एकस्मिन् मनौ मणौ एकस्मिन् सप्तमी मणौ अपि सप्तमी एकवचनं. मनीषु बहुवचनं. मनीषु सप्तमी बहुवचनं. अतः मणीन् द्वितीया बहुवचनं. सुन्दरमस्ति. इकारान्तपदस्य परिचयम् आं भगिनी वदतु.
आञ्जनेयः कथं जानाति श्रीरामः अस्ति नास्ति इति?
आम् इदानीम् आगच्छति.
How did he find out? Oh, okay. That's the next part. Oh, okay. Wonderful.
अस्तु सविता भगिनी अग्रे.
आं भगिनि. सर्वत्र रामस्य अन्वेषणं करोति किल भवान्? भवतः शरीरे कुतः नास्ति पश्यतु तावत् इति उक्त्वा आञ्जनेयः स्वस्य उरसभेदनं कृतवान्. आञ्जनेयस्य हृदये रामः सीताया सह हसन् अस्ति. तस्मिन् समये श्रीरामः अविभूर्तः. भवतः अभिमानेन तुष्टः अस्मि. चिरं जीवतु इति स आञ्जनेयम् आशीषा अनुगृहीतवान्. आञ्जनेयः वदति, सर्वत्र रामस्य अन्वेषणं करोति किल भवान् भवतः शरीरे. Bhagini, this sentence is uttered by the commoner, the person who said?
Yeah, I think I think this sentence is not complete iti chintyami Bhagini. Eka nimisha.
I think the person who's speaking to
the
Anjaneya,
person
the other person,
the person is watching Anjaneya is telling this.
एकनिमिषं भगिनि. सो अहं चिन्तयामि तत् एकनिमिषं भगिनि. अहम् अर्धभागं त्यक्तवती अहं. सो एवं अस्तु. So this is the other half. Aham tyaktavati. Idani meva aham pashyam. इदानीं सम्यक् पुनः पठतु भगिनि.
आं भगिनि,
प्रथमवाक्यं.
सर्वत्र रामस्य अन्वेषणं करोति किल भवान्? भवतः शरीरे श्रीरामः अस्ति किम् इति पृष्टवान् नागरिकः. नागरिकः आञ्जनेये आञ्जनेयेन पृष्टतः सर्वत्र रामस्य अन्वेषणं करोति किल
आञ्जनेयम् आञ्जनेयं पृष्टवान्
कुतः नास्ति पश्यतु तावत् इति उक्त्वा आञ्जनेयः स्वस्य उरसभेदनं कृतवान् उरसं मन्ये वक्षस्थलं भगिनि आञ्जनेयः तस्य वक्षस्थलं भेदनं कृतवान् आञ्जनेयस्य हृदये रामः सीताया सह हसन् अस्ति तस्मिन् समये श्रीरामः अविभूतः अविभूतः मन्ये प्रकटनं करोति भगिनि
प्रकटनं कृतवान् आम् तस्य पुरतः आगतवान् इति पुरतः प्रकटनं कृतवान्
श्रीरामः अविभूतः अविभूतः
भवतः
आविभूतः आविभूतः भवतः अभिमानेन तुष्टः अस्मि रामः उक्तवान् आञ्जनेयस्य अभिमानं
अभिमानम् इत्युक्ते अभिमान इत्युक्ते अर्थः कः भगिनि
अफेक्षन् अभिमानं लैक् तुष्टः सः अति तुष्टः सन्ति रामः उक्तवान् चिरं जीवतु इति सन्ति भगिनि
न तुष्टः सन्तुष्टः समानर्थम् इति
रामः आशीर्वादम् आशीर्वचनम् आञ्जनेये दत्तवान् चिरं जीवतु इति स आञ्जनेये आशीषा अनुग्रहीतवान् इति रामः उक्तवन्तः
सम्यक् आशीर्वचनं दत्तवान् सम्यक् सो अत्र अन्य किमपि वक्तुं नागरिकः इत्युक्ते नगरवासी
कामनर् कामनर्
कामनर् ओ कामनर् अस्तु अस्तु अन्य किं सीतया भवती सीताया इति उक्तवती सीतया सह अन्य अभिमानेन तुष्टः अस्तु चिरम् इत्युक्ते बहुकालं चिरं
लाङ्ग् लिव्
लाङ्ग् चिरं जीवतु सो अतः तस्य चिरञ्जीवि सो अत्र चिरञ्जीविन् इति इन् नकारान्तपदं योगिन् स्वामिन् इव अतः चिरञ्जीवी स्वामी योगी इति पदं भवति अस्तु उत्तमकथा खलु अस्तु अग्रे गच्छामः सप्तमी विभक्तेः प्रयोगः कुत्र अत्र अन्यत् अपि अत्र कुतः इति पदमस्ति चेत् अहम् आपणतः इति अपि अति भवति कस्मिन् स्थलतः इति कस्मात् स्थलतः इति अपि एकः अर्थः अस्ति कुतः इति अन्य अर्थः अस्ति किमर्थम् इति अत्र किमर्थम् अर्थे अस्ति किमर्थं नास्ति इति किमर्थम् अपि अस्ति स्थलतः इति तादृश अर्थः अपि अस्ति अत्र किमर्थम् इति अर्थे अस्ति अत्र सप्तमी विभक्तेः प्रयोगः वयम् एतत् सर्वं दृष्टवन्तः पठितवन्तः आधारः अस्ति सूचयामः चेत् सप्तमी विभक्ति विषयरूप आधार अपि कुत्र अस्ति प्रथमम् आधार साधारण आधारः अस्ति स्यूते पेटिकायां नद्यां गृहे इति कुत्र इति प्रश्नस्य उत्तरम् अन्यदपि अस्ति विषयरूप स्थलं नास्ति परन्तु विषयः अस्ति उदाहरणं मम संस्कृतम् इति विषयम् अस्ति संस्कृते मम आसक्तिः अस्ति तादृशप्रदर्शनीयं चेत् अत्र अपि सप्तमी विभक्तिरूपं भवति. अस्तु, अन्यत् अपि अस्ति, यस्मिन् मनुष्ये अथवा एतादृशविषये वयम् अभिमानम् अथवा अन्यत् किमपि भावं सूचयामः तत्र अपि सप्तमी विभक्ति. उदाहरणार्थं अत्र मैत्री, प्रेम इति अस्ति, तादृशं स्निह्यति, विश्वसिति इति पदद्वयम् आगच्छति चेत् निश्चयेन सप्तमी विभक्तिरूपं भवति. विश्वासं करोमि, स्नेहं करोमि इति भावमेव, परन्तु विश्वसिति विनयति न भवति खलु तादृशं, परन्तु विश्वासं, विश्वासः, स्नेहः इति अस्ति, तत्तु क्रियापदं भवति, स्निह्यति, विश्वसिति इति तादृशम् आगच्छति चेत् अत्रापि सप्तमी विभक्तिरूपं भवति. अन्यत् किम् अपि पठितवन्तः वयं, यत्र ग्रहणं, ताडनं, प्रहरणं वा भवति यस्मिन् अङ्गे, तत्र अपि सप्तमी विभक्तिरूपं भवति. आरक्षकः चोरं गृहीतवान्, चोरस्य कण्ठं गृहीतवान्, अथवा चोरं कण्ठे गृहीतवान्, कण्ठे गृहीतवान्, एतादृशमपि वयं पठितवन्तः. अन्य किमपि अस्ति वा? आम्, निपुणता, कुशलता, सामर्थ्यम् एतादृशं प्रकटयामः चेत् तत्र अपि सप्तमी विभक्ति. इदानीं वयं कदा इति पश्यामः, एतदपि वयं पठितवन्तः प्रायः, पाण्डवेषु युधिष्ठिरः ज्येष्ठः इति सति सप्तमी औट् आफ् सिलबस्, परन्तु अत्र अपि सप्तमी विभक्तिरूपं भवति. इदानीं वयं कदा इति पश्यामः. गीतासोपानं प्रति गच्छामः वयम्. अस्तु, एतत् पर्यन्तं पठितवन्तः गतसप्ताहे निपुणता, एतत् सर्वं श्लोकम् अस्ति, बहु सुन्दरं श्लोकम् अस्ति. उर्मिला भगिनी पठितुम् इच्छति वा कृपया?
यदा जनेषु निपुणता, कुशलता, सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति. एतं श्लोकम् उच्चैः पठत. कस्तूरी तिलकं ललाटफलके वक्षस्थले कौस्तुभम् नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्री परिवेष्टितो विजयते गोपालचूडामणिः.
सुन्दरं भगिनि. सो अत्र उदाहरणं दत्तमस्ति, श्रीकृष्णः कस्मिन् अङ्गे किं धरति इति वदत. उदाहरणमस्ति, श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति. अग्रे किम् अस्ति उर्मिला भगिनी?
वक्षस्थले कौस्तुभं धरति.
वक्षस्थले कौस्तुभं धरति. अस्तु, चम्पा भगिनी.
आं भगिनि, कृष्णः नासाग्रे नवभौक्तिकं धरति.
धरति. अस्तु, अम्ब.
करतले वेणुं करे.
करतले वेणुं धरति. करतले वेणुं धरति. जयश्री भगिनी.
सर्वाङ्गे हरिचन्दनं
धरति
धरति करे अपि कङ्कणं धरति सर्वाङ्गे हरिचन्दनम् अस्तु सन्ध्या भगिनी
कलयन् कण्ठे च मुक्तावलिं धरति
कलयन् इति न जानामि परन्तु कण्ठे मुक्तावलिं
मुक्तावलिम् इत्युक्ते भगिनि
मुक्त पर्ल् आवलि
ओके पर्ल्
नेक्लेस् इति हारं हारं
भगिनि कौस्तुभं
वदतु भगिनि
कौस्तुभं मन्ये का भगिनि
हारं कौस्तुभम् इति मणि अस्ति खलु यथा वयं जानीमः समुद्रमथनसमये कौस्तुभमणि आगतं कौस्तुभमणिः वक्षस्थले कौस्तुभम् आसीत् इति
नवमौक्तिकम् इत्युक्ते भगिनि
नूतन पर्ल्स् इति नव
ओके नासाग्रे मीन्स् इन् द
on the nose he was the nose ring nasa agre
in front of his nose
at the bullock. Tip of the nose
called bullock or something
bullock like the bullock yeah
krishna wears it is it
krishna
bhagini here karatale venum kare kankanam is written in he has his venu in the hand and kare here he means the wrist part kankanam
kara talam means actually palm
palm I think
kare is hand sarvange harichandanam cha kalayan actually we usually say another word right harichandanam salalilam or something like that कलिनं सन्थिङ्ग् परन्तु कलयन् इदानीमेव पश्यामि कण्ठे च मुक्तावलिं सेम् लैक् मौक्तिकं मुक्तावलिं सो अत्र आवलिम् अस्तु अग्रे सन्ध्या भगिनी उक्तवती वा
आम् आं भगिनि
अस्तु शारदा भगिनि शारदा भगिनि अन्म्यूट् कर्तुं न शक्नोति वा प्रायः समस्या अस्ति क्षम्यतां भगिनि सविता भगिनि
गोपस्त्री परिवेष्टितो विद्येते गोपालचूडामणि गोपिकास्त्री परिवेषिणः भगिनि
परिवेषित कृष्णः अत्र अस्ति गोपिकाः तं परितः
सराौण्डेड् बै
गोपश्री सराौण्डेड् बै अस्तु
गोपालचूडामणि
विजयते
गोपालचूडामणि विजयते मे विक्ट्रिभिः गोपालचूडामणि द ज्वेल् अमङ्ग् गोपाल
गोपाल गोपालेषु चूडामणि
गोवंश
चूडामणिः गोपालः यः गावं पालयति गोपाल गोपालचूडामणिः गोपालेषु चूडामणिः अति उत्तम श्रेष्ठ विजयते सुन्दरं खलु सर्वत्र
अत्र कलयन् अस्ति
शत्रन्तम् शत्रन्तमेव परन्तु कलयन् इति अहं दृष्टवती परन्तु तत्र केल्क्युलेटिङ्ग् तादृशम् अस्ति अहं चिन्तयामि धरन् इति
धरन्
धरन्
प्रातिपदिकं किं कलयन्
कलयत् प्रातिपदिकं परन्तु ऐ मीन् लैक् एक्साक्ट् मीनिङ्ग् न वक्तुं शक्नोमि, परन्तु धरन् इति अहं चिन्तयामि.
भगिनी मम समीपे श्लोक अस्ति, सर्वाङ्गे हरिचन्दनं सुललितं.
सुललितं सुललितं
सुललितं
ललितं सुन्दरम् अतिसुन्दरं सुललितम्.
Bhagini, Vijayate here means he is won over the Gopikas, is it, who surround him? Is that what it means?
Vijayate means he is always victorious. Iti. Saha jayate, saha vijayate.
Okay, so Vijayate by itself is a standalone phrase. It's not standalone. Linked to either...
No.
Okay. Or we can interpret it as Gopala Chudamani is always victorious.
Vijayate. Yama. Vijayate is like that. Okay. Gopala Chudamani hi Vijayate.
Vijayate.
Okay. Gopalo me beech me shreshth bataye hain.
Kim Bhagini? Gopala?
Chudamani mama समीपे बुक अस्ति वा, एक्स्प्लेन् देट् गोपाल लोक मे श्रेष्ठ.
श्रेष्ठ गोपाल लोग से श्रेष्ठ लोग मे श्रेष्ठ. अस्तु अग्रे अस्ति कदा, बहु सुलभः एव. किमर्थं वयं सम्यक् जानीमः सूर्यः कदा उदेति. सूर्यः प्रातः उदेति. प्रातः इति अव्ययं, कालः इति योजयामः चेत् अव्ययं नास्ति. काले, कालः, कालस्य इति भवति. एवमेव सायम् अपि अव्ययम्. अस्तम् अस्तम् एति उदेति अस्तु. तादृशपदम् अस्तु. एकमेकं वदति वा उर्मिला भगिनी? वाक्यद्वयं 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 पठामः क्रमशः.
एतत् सम्भाषणम् उच्चैः पठत बालः. अम्ब, कृष्णः कदा उत्तिष्ठति? माता. वत्स, कृष्णः उषः काले उत्तिष्ठति.
सो अत्र काले अस्ति चेत् सप्तमी वर्ति काले, परन्तु उषः उषः इति वदामः चेत् तत्र विभक्तिरूपं न भवति. यथा प्रातःकाले इति भवति तथा एव उषःकाले इत्युक्ते अतिप्रातःकाले. अस्तु चम्पा भगिनी अग्रे.
आं भगिनि. बालः, सः कदा स्नाति? माता, प्रातः एव स्नाति.
बालः माता इति अपि मास्तु, सम्यक् भवति. अम्ब,
बालः अम्ब, कृष्णः कदा धेनुं चालयति? माता. वत्स, प्रातराशानन्तरं धेनुः चालयति.
चालयति. सो अत्र धेनुः इति द्वितीया बहुवचनरूपम्. धेनुः स्त्रीलिङ्गपदम् अस्ति. तद् चरति इत्युक्ते धेनुः चरति, स्वयं चरति. परन्तु चरणं कारयति कृष्णः, अतः चारयति. सो दिस् वि काल् निच् प्रयोगः. निच् वेन् वि मेक् सम्बडि डू सम्थिङ्ग् लैक् द कृष्णः धेनुः चारयति. प्रातः आसनं, प्रातः आसनं. आसनम् इत्युक्ते खादनं. प्रातराशनम् इत्युक्ते ब्रेक्फास्ट् इति वदामः खलु, तादृशं. प्रातराशनानन्तरम् आसनन्तरं धेनुः चारयति. अस्तु जयश्री भगिनी.
धेनुः कः विभक्ति भगिनी?
द्वितीया बहुवचनं धेनुः धेनु धेनवः प्रथमा विभक्ति धेनु धेनु धेनुः द्वितीया विभक्ति
धन्यवाद
जयश्री भगिनी अग्रे
आं भगिनि बालः सः कदा भुङ्क्ते माता सः धेनुचारणान्तरं भुङ्क्ते
भुङ्क्ते इत्युक्ते खादति कदा खादति धेनुचारणानन्तरं पदत्रयमस्ति अत्रापि पदत्रयं प्रात अश्न अनन्तरम् प्रात अश्न अनन्तरं सत्र धेनुचारणानन्तरम् इति अस्ति सन्ध्या सन्ध्या भगिनि
आं भगिनि बालः कृष्णः कदा विश्राम्यति माता सः अपराह्णे वने एव विश्राम्यति
तत्र विश्रामं करोति विश्रामं स्वीकरोति इति साधारणतया वदामः अत्र विश्राम्यति सो अत्र अपर अह्न इत्युक्ते अह्न अतः एव किं वदामः धन्यवादः मध्य अह्न मध्याह्न इति मध्याह्ने इति वदामः खलु तादृशम् अस्तु
मध्याह्नं भगिनि मध्याह्नं
सो द हकारस्य उच्चारणं सम्यक् न कुर्मः मास्तु अपि मध्याह्नम् इति न वद मध्याह्नं
Such a beautiful thing you taught us, Bhagini, today. I never knew this was the origin.
There are so many things, Bhagini, I don't even know, you know. Tadashamasti.
Every day we learn something beautiful.
Every day we learn, yes. Every day we learn. Yeah.
Thank you so much.
Anyat, anyat api asti. Saptaham iti api vadamaka. अस्तु अग्रे शारदा भगिनि
क्षम्यतां भगिनि कश्चन अगच्छत्
ओ एवम् एवं वा अस्तु अस्तु
अम्ब सः कदा गृहम् आगच्छति सायम् आगच्छति
सायं सायम् इति अव्ययं काल इति योजयामः चेत् अव्ययं न भवति अस्तु शारदा उक्तवती वा न खलु
अहम् इदानीम्
इदानीमेव क्षम्यतां सविता भगिनि
आं भगिनि बालः अम्ब अहं कृष्णस्य गृहं गच्छामि माता अद्य मास्तु श्वः गच्छ
श्वः गच्छ सो अत्रापि अद्य अव्ययं श्वः अव्ययम् अस्तु उर्मिला भगिनि
बालः अम्ब कदा श्वः भविष्यति माता इदानीं निद्रां कुरु ततः जागृहि जागरणानन्तरं श्वः भविष्यति.
उत्तमं खलु, वेरि नैस्. इदानीं निद्रां कुरु, ततः आफ्टर् द जागृहि यु त्वं त्वं जागृहि जागरणानन्तरं श्वः भविष्यति. अस्तु, चम्पा भगिनी अग्रे.
अहं भगिनि. माता, वत्स, इदानीमेव अद्य अद्य एव यह्य यह एव श्वः श्वः एव.
ततः पूर्वम् एवं पठतु भगिनि. इदानीमेव चिन्ता मास्तु.
इदानीम् एव जागर्मि, इदानीम् एव श्वः भवतु. वत्स, इदानीम् इदानीम् एव अद्य अद्य एव यह्य यह्य एव श्वः श्वः एव.
श्वः श्वः एव. अस्तु, क्षम्यतां भगिनी, उर्मिला भगिनी न पठितवती खलु, अन्तिमं पठतु.
ओके. बालः, तर्हि इदानीं शीघ्रं निद्रां करोमि.
अस्तु, भगिनी पठितवती. अस्तु, नास्ति चिन्ता. सो अत्र इदानीमेव जागर्मि बहु भिन्नरूपं. जागृहि, जागर्मि, इदानीमेव श्वः भवतु, वत्स, इदानीम् इदानीमेव अद्य अद्य एतादृशम् उक्तवती. सो अत्र भिन्नभिन्न विशेषक्रियापदरूपाणि सन्ति. जागर्मि, अपि च विश्राम्यति, भुङ्क्ते. भुङ्क्ते इति आत्मनेपदी. विश्राम्यति आत्मनेपदी न, अत्र अपि आत्मनेपदी न, परन्तु बहु भिन्नरूपाणि सन्ति, विशेषक्रियापदरूपाणि. अस्तु, अत्र अग्रे गच्छामः. कदा,
वाट् इस् द मीनिङ्ग् आफ् द लास्ट् टु सेण्टेन्सेस् भगिनि? टुडे इस् टुडे, टुमारो इस् टुमारो, yesterday is yesterday.
Yeah, so you know, she's just pacifying Krishna, that's all.
Okay. So bhagini jagarmi idani meva shvah bhavatu. He says that now itself I want to get up, and now itself I want tomorrow.
Idani meva shvah bhavatu, let it be tomorrow, now itself.
Okay.
So, so the mom is telling, no, idani means only now. Idani means idani meva. Adhya means only adhya. So, it cannot happen. So, then he said, sarhi idani shigra nidram karom. Okay, then I'll go to sleep.
What a sweet conversation.
Bhagini?
Bhagini, vadata.
Bhagini? Hyah means yesterday?
Hyah is yesterday.
Jagarmi uttam purushi asti?
Uttam. Aham jagarmi. Tvam jagrihi.
Dhatu kaha bhagini?
पश्यामः अत्र अष्टाध्याय्यां पश्यामः. अहं चिन्तयामि, न जानामि. सम्यक् न जानामि. जागृमि, नो रिसल्ट्स्. अस्तु, अहं संस्कृते लिखामि. अस्तु, अन्यपदं जागर्मि. अस्तु, जागृमि.
लोट्लकार
no no lotlakara paranto she wanted the root is jagru bagini jagru
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 astu dhanyavada bagini
so atra rupani evam santi so we never use it so ataha samyaktya latlakara eva bagini jagarni जागर्ति अत्र जागर्ति जागृतः जागृति एव अत्र जागर्ति सः जागर्ति ते जागृति बहु भिन्नभिन्नरूपाणि जागर्ति जागृतः जागृति जागर्षि जागृतः जागृत जागर्मि जागृवः जागृमः
सो वी कैन से जागरणं करोमि इन्स्टेड ऑफ
दैट इज द इजीएस्ट जागरणं करोमि सो इफ वी लुक एट द कृदंत पदम वी लुक एट द ल्युट जागरणं करोमि सिंपलेस्ट जागरणं करोतु
भगिनी इस विश्राम्यति द सेम निच् प्रयोग यू आर् टाकिङ्ग् अबौट्
न विश्राम्यति इस् नाट् निच् विश्राम्यति इस् लैक् विश्रामं करोति जागरणं करोति लैक् दट् विश्राम्यति
Okay.
It's not much. So atra, yeah, that's a good question, Bhagini. So atra, Vishramayati, then it becomes like that. Vishramayati.
Okay.
So atra, Pashyamaha, Vi iti upasarga, upasargam tyaktva shramyati iti Pashyamaha. रं धातु अस्ति श्राम्यति वि उपसर्गं योजयित्वा विश्राम्यति णिच् कथं भवति निजन्ति श्रमयति विश्रमयति म भवति रं न भवति श्रमयति अत्र श्राम्यति श्रमयति श्रमयति
गुड् थेङ्क् यू भगिनि
So, whenever we are curious, we should look. Okay? We will not remember, but at least we will look. Or maybe we will remember. Kasya pariyayaha? Amba kalo? Urmila na uptavati.
Aham uptavati, kintu eka prashna asti. Shramaha. श्रम धातु अहं दृष्टवती किन्तु उपसर्गार्था अहं विश्राम्यति न प्राप्नोमि
न प्राप्नोति भगिनि उपसर्गसहित न भवति उपसर्गरहित एव अत्र भवति
न अहम् उपसर्गार्था
ओ उपसर्गस्य अर्थः वा अस्तु अस्तु सो अत्र गच्छति इति क्रियापदं गम् इति धातु अस्ति आ इति उपसर्ग वि इति उपसर्ग पर प्रति एतादृश लघु लघु पदानि सन्ति एतानि उपसर्गानि इति वदामः वयं
तत् अहं जानामि निजन्ते तदन्तरं यङ्क्ते तदन्तरं कृदन्ते सो उपसर्गार्था तदर्थम्
इस् नाट् अवेलेबल् यट्
अस्तु अस्तु
सो अग्रे आगच्छति उपसर्ग इन् यूस् फार् दिस् धातु अग्रे आगच्छति इदानीं न
अस्तु अस्तु
इदानीं न प्राप्नुमः अत्र. अस्तु, इदानीम् अवगच्छामि भवतः भवत्याः प्रश्नः. अस्तु अस्तु, तर्हि अम्ब आरम्भं कुर्मः. अभ्यासः कदा इति प्रयोगद्वारा यतो उदाहरणं यथा उदाहरणं यतोदाहरणं प्रश्ननिर्माणं कुरुत. केवलं कदा. दीपावली कार्तिक अमावास्यायां भवति. दीपावली कदा भवति? अत्र अमावास्यायाम् अमावास्या इति पदम् अमावास्या यां योजयित्वा सप्तमी विभक्तिरूपम् आगतम्. अस्तु, सङ्क्रान्तिः पठतम्.
सूर्यस्य मकरराशि प्रवेशदिने भवति. सङ्क्रान्ति सूर्यस्य मकर
अत्र अर्थः उत्तरम् एवम् अस्ति. अत्रापि दीपावली कार्तिक अमावास्यायां भवति. कार्तिक अमावास्यायाम् इति उत्तरम्. प्रश्नः अस्ति दीपावली कदा भवति? दीपावली कार्तिक अमावास्यायां भवति, कार्तिकमासस्य अमावास्यायाम्. सङ्क्रान्तिः
कदा भवति?
सम्यक्, सङ्क्रान्तिः कदा भवति? सङ्क्रान्तिः सूर्यस्य मकरराशिप्रवेशदिने भवति. सम्यक्. अस्तु, जयश्री भगिनी.
विजयदशमी महावाम्याः
नवम्याः
अनन्तर महान् वाम्याः
महानवमी इति वदामः खलु, महानवमी.
ओ, महानवम्याः महानवम्याः अनन्तरदिने अश्वयुजशुक्लदशायां भवति. विजयदशमी कदा भवति?
सम्यक्, विजयदशमी कदा भवति? विजयदशमी महानवमी, नवमी इति अस्ति. सो नवम्याः नवम्याः अनन्तरदिने आश्वयुज शुक्लदशमी, अत्रापि दशमी, दशम्यां भवति. अत्र सप्तमी विभक्ति, अत्र षष्टि विभक्ति. नवम्याः अनन्तरदिने आश्वयुज शुक्लदशम्यां भवति. अस्तु, सन्ध्या भगिनी.
गुरुपूजा आषाढपूर्णिमायां भवति. गुरुपूजा कदा भवति?
गुरुपूजा कदा भवति? आषाढपूर्णिमा एव पूर्णिमायां भवति. अस्तु, शारदा भगिनि.
युगादिः चैत्रशुक्लप्रतिपदायां भवति. युगादिः कदा भवति?
युगादिः कदा भवति? अत्र चैत्रशुक्ल प्रतिपदा इति अस्ति. प्रतिपदा इति अर्थः अस्ति प्रथमा अपि. प्रथमा तिथि इति वदामः खलु, प्रथमा द्वितीया इति. सो अत्र प्रतिपदा इति अन्य नाम पर्यायपद.
मराठीदेशे पाडुवा भगिनि, प्रतिपदा इस पाडुवा.
ओ, पाडुवा.
ओ, पाडुवा.
अस्तु, धन्यवादः. सविता,
गुडी पाडुवा.
Is it the same as Shukla Paksha?
Yeah, Shukla Paksha, but the first day of Shukla Paksha, that is after Amavasya.
Okay.
After Amavasya, we call it Shukla Paksha. Okay. Agree?
वदतु भगिनि.
पञ्चमः भगिनि.
आं पञ्चम.
गणेशोत्सवः भाद्रपदशुक्लचतुर्थ्यां भवति. गणेशोत्सवः कदा भवति?
कदा भवति? सो अत्र चतुर्थी
भाद्रपदशुक्लचतुर्थ्यां भवति.
चतुर्थी अस्ति, चतुर्थ्यां इत्यां भवति, चतुर्थ्याम् इति भवति. अस्तु अग्रे उर्मिला भगिनी.
शिवरात्रिमहोत्सवः माधवकृष्णचतुर्दश्यां भवति. चतुर्दशी. शिवरात्रिमहोत्सवः कदा भवति?
कदा भवति? सम्यक्. अस्तु अग्रे रवीणाबेन् भगिनी स्वागतम्. इदानीमेव पश्यामि.
नमस्कारः भगिनि.
नमस्कारः भगिनि.
श्रीकृष्ण जयन्ती कदा भवति?
कृष्णाष्टम्यां भवति. कृष्णाष्टम्यां भवति. सम्यक्.
अस्तु
भगिनि पुनः.
आं भगिनि. श्रीरामजन्म चैत्रशुक्ल नवम्यां भवति. श्रीरामजन्म कदा भवति?
कदा भवति? चैत्रमास शुक्लपक्ष नवमी तिथ्याम् अपि वक्तुं शक्नुमः. तिथि तिथ्यां भवति. चैत्रमास शुक्लपक्ष नवमी नवम्यां भवति. अस्तु अम्ब.
महाभारतयुद्धसमाप्ति अमावास्यां भवति. महाभारतयुद्धं कदा भवति?
कदा भवति? अमावास्यायां भवति. अमावास्यायां. सम्यक्. अस्तु जयश्री भगिनी.
आं भगिनि. कृष्णस्य गीतोपदेशः गीता जयन्ती मार्गशिर पुष्क्लैश खादशायां भवति.
शुक्लैश. सो अत्र शुक्ल एकादशी.
शुक्लैकादशी.
शुक्लैकादश्यां भवति. कृष्णस्य गीतोपदेशः
कदा भवति?
कदा भवति? सम्यक्. अस्तु अग्रे सन्ध्या.
मनुष्याणां क्रीडाशक्तिः बाल्ये भवति. मनुष्याणां क्रीडाशक्तिः कदा भवति?
कदा भवति? अस्तु सम्यक्. सविता भगिनी. शारदा भगिनी.
न भवति.
न भवति वार्धिक्ये न भवति. अस्तु शारदा.
नराणां चिन्ता वृद्धत्वदशायां भवति. नराणां चिन्ता कदा भवति?
वृद्धत्वदशायां. वृद्धत्वदशायां भवति. अस्तु सविता भगिनि अन्तिमं.
कृष्णायाः शान्तिः कदापि न भवति. कृष्णायाः शान्तिः कदापि न भवति.
कदा भवति?
कृष्णाय शान्तिः कदा न भवति?
कदा भवति?
कदा भवति?
कदा भवति? कदापि न भवति.
कृष्णाय शान्तिः कदापि न भवति.
कृष्ण इत्युक्ते
illusion.
रायः खलु.
इल्यूशन् इति भवति कृष्णा मृगकृष्ण
बहवः इच्छा
डिसैड्
ग्रीडिनेस् करेक्ट्
ग्रीडिनेस्
बहवः इच्छा एव बिफोर् ऐ फर्गेट् अग्रिमवर्गः ऐ हाव् टु केन्सल् भगिनि बिकास् साटर्डे वि आर् ट्रावेलिङ्ग् अगेन् द मार्निङ्ग् and Friday also I will be busy and I don't want to change too many times. Hello?
Chinta masu bhagini.
Chinta
no problem bhagini.
Enjoy your some quality time
with your daughter.
Astu. And again when I'll be going to California, I will see what the situation is over there, bhagini. I'll be going to my son's house. So 7 o'clock at this time means it is like 4 o'clock in the morning for me.
Oh my god.
Yeah.
And I don't want sir, but if I can change it to 6 o'clock, I mean 2 hours late, 3 hours late, I don't want to inconvenience so many people. So I think we can just take a break, or if you want we can have it two hours later. I don't know.
We can take a break, right? I think we can take a break, or for me
I don't mind getting up early. We will see. Okay,
it's too early for you. 4 o'clock
because
4 o'clock is too early.
Yeah. So 6 o'clock will be good, but I don't want inconvenience so many people. We will see how many people can come.
Let's take a break.
We'll take a break. Okay, we'll just take a break. So which means a 3-week break.
Yeah, no problem.
Yeah,
okay. Sounds no problem.
Okay, very good.
So give us a lot of homework, Bhagini.
Okay, I'll do that. Okay. Okay, so agre asti, this is also a very easy subject because, you know, we already know this. Adya means today, shvaha tomorrow, parashvaha day after tomorrow, pra parashvaha the day after tomorrow. Same thing, hyaha parahyaha praparahyaha. So atra adya somavasaraha. श्वः मङ्गलवासरः परश्वः बुधवासरः प्रपरश्वः गुरुवासरः अद्य सोमवासरः अस्ति चेत् ह्यः कः वासरः रविवासरः अथवा भानुवासरः अपि वदामः खलु भानुवासरः परश्वः शनिवासरः अन्य नाम अस्ति खलु किम् तिलवासरः इति वदामः शुक्रवासरः एव अस्तु अस्तु इदानीं पठामः वयं आरम्भं करोतु नाम अस्ति श्वः कस्य जयः श्वः कः जयते इति जयति जयते अस्तु कस्य पर्याय वीणा बेन् वा
उच्चैः पठत जानीत च अद्य
न तत् मास्तु भगिनि तत् पठितवन्तः वयम् एतत् आरम्भं करोतु एतं प्रसङ्गम् उच्चैः पठत
एतं प्रसङ्गम् उच्चैः पठत कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योद्धाः अनेके मृताः सहस्रशः सैनिकाः भग्नावयवाः जाताः कर्णः अपि हतः युद्धस्य षोडशः दिवसः चिन्ताकुलः युधिष्ठिरः एवं विषीदति अहो मम दौर्भाग्यं अद्य
एतत् अवगच्छामः भगिनि. प्रथमं प्रसङ्गम् इत्युक्ते अस्तु सम्यक् उच्चै अस्तु. कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति. सो एतत् अपि शत्रुप्रत्यय परन्तु प्रवर्तते इति आत्मनेपदि धातु. सो आत्मनेपदि धातोः शत्रुप्रत्यय इत्युक्ते इट् वास् हेपनिङ्ग् लैक् इट् इस् हेपनिङ्ग् परन्तु आत्मनेपदि.
सो आत्मनेपदि डु वी काल् शानच् प्रत्यय
शानच् सम्यक् आत्मनेपदि शानच् तत्र इस् फार् परस्मैपदि. सो दिस् इस् शानच् प्रत्यय शत्रु शानच् प्रवर्तमानम् एव अस्ति. सो इट् इस् हेपनिङ्ग् इति तादृश अर्थे अस्ति. कुरुक्षेत्रे युद्धं प्रवर्तमानम् अस्ति कौरवाणां पाण्डवानां च पक्षे पाण्डवानां पक्षे अपि कौरवाणां पक्षे अपि महारथाः इत्युक्ते वीराः रथिकाः रथचालकाः योद्धाः युद्धं कर् सैनिकाः युद्धं कर्तुं ते आगतवन्तः ते योद्धाः अनेके मृताः मरणं प्राप्तवन्तः सहस्रशः शः इति वदामः चेत् लैक् थौसण्ड्स् सहस्रशः सैनिकाः भग्नवयवाः जाताः इत्युक्ते भग्न अवयवाः इत्युक्ते शरीर अवयवाः भग्न शरीर अवयवाः जाताः लैक् ब्रोकन् लेग्स् हेण्ड्स् तादृशं भग्न अवयवाः भग्नावयवाः जाताः. कर्णः
अवयवः अत्र दीर्घसन्धि अस्ति भग्न अवयवाः
दीर्घ भग्न अवयवाः भग्नावयवाः. कर्णः अपि हतः. युद्धस्य षोडशः दिवसः दिवस् अपि दिनम् अत्र दिवस् सकारान्तपदं मनस् इव षोडशः दिवसः तमिळ्भाषायां दिवसम् इति वदामः खलु देन दि एव दिवसम् एव दिवसम्. चिन्ताकुलः युधिष्ठिरः एवं विषीदति. चिन्ताकुलः इति किं फुल् आफ् ग्री आकुलः अत्रापि सन्धिः अस्ति. चिन्तया आकुलः युधिष्ठिरः चिन्ताकुलः युधिष्ठिरः. सो अत्र विशेषभावः विशेष्यम् एवमस्ति विशेषणम् अब्जेक्टिव् आफ् युधिष्ठिरः. युधिष्ठिरः चतुरः एवमस्ति खलु तादृशः पदमस्ति चिन्ताकुलः युधिष्ठिरः एवं विषीदति. विषीदति इत्युक्ते लामेण्टिङ्ग् इति अस्ति खलु
विषादं करोति
किं
विषादं करोति
विषादं तस्य विषादं प्रकटयति शोकं प्रकटयति विषादं प्रकटयति. अस्तु अग्रे चम्पाबगि
अहो मम दौर्भाग्यम् अद्य युद्धस्य षोडशं दिनम् यः आचार्यः द्रोणस्य दिवगन् गतिः परयः जयद्रथस्य प्राणहानिः प्रपरयः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् तत्पूर्वं भीष्मादीनां पतनं स्वः कस्य जयः कस्य पराजयः न जानामि परस्वः कस्य जीवनं कस्य मरणं न जानामिह
जानीमः
परस्वः तदन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्याभिलाषः अहम् एव सर्वविधस्य क्लेशस्य हेतुः अहं कथं जीवामि हा 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 इति रोदिति
अस्तु अहो मम दौर्भाग्यम् किं
मिस्फार्च्यून्
सो अत्र साधारणतया दुर्भाग्यम् अपि अस्ति परन्तु दौर्भाग्यं मम दौर्भाग्यम् अद्य युद्धस्य षोडशं दिनं षोडशम् अत्र दिवसः षोडशः अस्ति अत्र षोडशं दिनम् समान अर्थकपदानि परन्तु भिन्नभिन्न लिङ्गम् आचार्यद्रोणस्य दिवङ्गतिः ह्यः परह्यः जयद्रथस्य मरणहानिः समान अर्थं दिवङ्गतिः मरणहानिः स्वर्गगमनं प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् मरणं दिवङ्गतिः प्राणहानिः स्वर्गगमनं समानम् ततः पूर्वं भीष्मादीनां पतनम् अपि समानार्थकम् श्वः कस्य जयः कस्य पराजयः न जानामि परश्वः कस्य जीवनं कस्य मरणं न जानीमः प्रपरश्वः तदनन्तरं कस्य किं किम् इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्य अभिलाषः इति तृष्ण खलु तादृशम् अभिलाषः मम इच्छा राज्ये इच्छा राज्य अभिलाषः अहमेव सर्वविधस्य क्लेशस्य हेतुः इत्युक्ते कारणमेव सर्वविधक्लेशस्य कारणम् अहमेव अहं कथं जीवामि इति रोदिति सः सो अत्र एवं अस् धातु बहु प्रसिद्धधातुः अस्ति तत्र कोष्टकात् शब्दान् चित्वा रिक्तस्थानानि पूरयत् आसीत् अस्ति इति इदानीम् आसीत् भूतकाल भविष्यत्काल अस्ति भविष्यति इति श्वः परश्वः प्रपरश्वः भविष्यति अद्य अस्ति परह्यः ह्यः इति आसीत् भूतकालं सूचयति अद्य मङ्गलवासरः अस्ति ह्यः कः वासरः अस्तु समयः अपि अतीतः अग्रे पश्यामः एतत् सर्वम् अग्रे पश्यामः इदानीं विरमामः वा 75 तः अग्रे पश्यामः अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः
धन्यवादः।
धन्यवादः भगिनी
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी
धन्यवादः